ओम देवी वाचा ये विस्तवयिष्यमाम् नित्यं तोष्यते समाहितः तस्याहं सकलाम्बादां समयिष्याम्य संशयं मधुकैटपनाशं च महिषासुरघातनं कीर्तयिष्यन्त्येतद्वत् वदं शुम्भनुशुम्भयोः अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः श्रोष्यन्ति चैव ये भक्त्या मम महात्म्यं त्वं न तेषां दुष्कृतं किञ्चित् दुष्कृतोत्थान चापदः भविष्यति न दारिद्र्यं न चैवेष्टवियोजनं शत्रुतो न भयं तस्य दर्शितो वा न राजतः न शस्त्रानलतोयोगात् कदाचित् सम्भविष्यति तस्मान् ममेतन्महात्म्यं पठितव्यं समाहितैः श्रोतव्यं च सदा भक्त्या परं स्वश्चयनं हि तद् उपसद्गानशेषान्तु महामारी समुद्भवान् तथा त्रिविधमुत्पादं माहात्म्यं शमयन्मम यत्रेतत्पठ्यते सम्यक् नित्यमायतने मम सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे सदं बलिप्रजाने पूजायाम् अग्निकार्यमहोत्सवे सर्वं ममेतच्चरितमुच्चार्यं श्राव्यमेव च जानता जानता वापि बलिपूजां तथा कृतां प्रतीक्षिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतं शरत्काले महापूजा क्रियते याचवार्षिकी तस्यां ममेतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः सर्वाबाधा विनिर्मुक्तो धनदान्यसुतान्वितः मनुष्यो मत्प्रसादेन भविष्यति न संशयः श्रुत्वा ममेतन्महात्म्यं तथा चोत्पत्ते शुभाः पराक्रमं च युद्धेषु जायते निर्भयपुमान् विपुलसंशयं जान्ति कल्याणं चोपबुध्यते नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वतां शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने गृहपीडासु योग्रासु माहात्म्यं शृणुयान्मम उपसर्गा शमं यान्ति गृहपीडासु दारुणाः दुःस्वप्नञ्चन्द्रविदृष्टं सुस्वप्नमुपजायते बालग्रहविभूतानां बालानां शान्तिकारकं सङ्घातभेदे चन्द्रणां मैत्रीकरणमुत्तमं दुर्वृत्तानामशेषाणां बलहानिकरं परं रक्षोभूतपिशाचानां पटनावदेवनाशनं सर्वं ममेतन्महात्म्यं मम सन्निधिकारकं पशुपुष्पाद्गिरूपैश्च दन्तदीपैस्ततोत्तमैः विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् अन्यैश्च विविधैर्भोगैः प्रदानेन वत्सेन या प्रीतिर्मे क्रियतेयास्मिन् सकृदुच्चरिते श्रुते श्रुतं हरति पापानि तथारोग्यं प्रयच्छति रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम युद्धेषु चरितं जन्मे दुष्टदैत्यनिवर्हणं तस्मिन् श्रुते वैरिगतं भयं पुंसां न जायते युष्माभिस्तुयाश्च याश्च ब्रह्मर्षिभिः कृताः ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभामतिम् अरण्ये प्रान्ते वापि दावाग्निपरिवार्तः दस्युभिर्वावृतशून्ये विहितो वापि शत्रुभिः सिंहव्याघ्रानुयातौ वा वने वा वनहस्तिभिः राज्ञा क्रुद्धेन चाज्ञप्तो बध्यो बन्धगतोऽपि वा आघूर्णितो वातेन स्थितपोते महार्णवे पतत्सु चापशस्त्रेषु सङ्ग्रामे वृषदारुणे सर्वाबाधासु घोरासु वेदनाभ्यर्थितोऽपि वा स्मरन् ममेदच्चरितं नरो मुच्येत सङ्कटात् मम प्रभावात् सिंहाद्या दस्यवो वैरिणस्थितां दूरादेव बलायन्ते स्मरदश्चरितं मम ऋषिरुवाच इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमान् पश्यतामेव देवानां तत्रैवान्तर्दीयत तेऽपि देवानिरातङ्गाः स्वाधिकारान्यथापुरान् यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः दैत्याश्च देव्या निहते शुम्भे देवरूपं विधि जगद्विद्धं सुखे तस्मिन् महोग्रेतुलविक्रमे निशुम्भे च महावीर्ये शेषा पातालमायुः एवं भगवती देवी सा नित्यापि पुनः पुनः सम्भूय कुरुते भूप जगतपरिपालनं पैतन्मोहिते विश्वं सैव विश्वं प्रसूयते सा याचिता च विज्ञानं तुष्टादिद्धिं प्रयच्छति व्याप्तं तैरच्छकलं ब्रह्माण्डं मनुजेश्वर महाकाल्या महाकाले महामारी स्वरूपया सैव काले महामारी सैव सृष्टिद्भवत्यजा स्थितिं करोति भूतानां सैव काले सनातनी भवकालेन्द्रणां सैव लक्ष्मीर्बुद्धिप्रदागृहे सैवा भावे तथा लक्ष्मी विनाशायोपजायते स्तुता सम्पूजिता पुष्पे धूपवृन्दादिभिस्तता ददादिवित्तं पुत्रां च मतिं धर्मे गतिं शुभाम् ॐ श्री मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवीमहात्म्ये फलस्तुतिर्नाम द्वादशः ॐ तत्सत्